इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा. आदौ मुख्याः वार्ताः. विदेशमन्त्रिणा डॉक्टर एस जयशंकरेण नवदिल्ल्याम् अफगानिस्तानस्य विदेशमन्त्रिणा मौलवी अमीर खान मुत्ताकी इत्यमुना सह वार्ता साधिता. अत्रावसरे भारत अफगानिस्तान देशौ प्रतिवेशी देशैः उत्पद्यमानानाम् आतंक कृत्यानां निन्दनं कृतवन्तौ. 20,000 नोबल शांति पुरस्कारः मारिया कोरिना मचांडो इत्यस्मै प्रदत्तः. निर्वाचनायोगेन बिहार विधानसभा निर्वाचनार्थं प्रथमचरणस्य अधिसूचना प्रकाशिता. रक्षामन्त्रिणा राजनाथ सिंहेन प्रोक्तं यत् देशः संरचनात्मक परिष्कारेषु विशेषतः विनिर्माण क्षेत्रे परिवर्तनशील यात्रायाम् अस्ति. अपि च क्रीडावार्तासु क्रिकेट क्रीडायां पौरस्त्य क्रीडकः यशस्वी जयस्वालः 73.1 अंकम् अवाप्य भारतस्य विजयं सुनिश्चितवान्. अथ वार्ताः विस्तरेण. विदेशमन्त्रिणा डॉक्टर एस जयशंकरेण भारत अफगानिस्तान देशयोः आतंकवादं सम्मुखीकर्तुं सहयोगपूर्वकं कार्याचरणाय बलं प्रदत्तम्. नवदिल्ल्याम् अफगानिस्तानस्य विदेशमन्त्रिणा मौलवी अमीर खान मुत्तकी इत्यमुना सह उपवेशनावधौ स्वीये उद्घाटनभाषणे जयशंकरेण प्रोक्तं यत् उभावपि देशौ विकास समृद्धिभ्यां प्रति समान प्रतिबद्धतां संधारयतः. मन्त्रिणा प्रोक्तं यत् अफगानिस्तानस्य विकास प्रगत्योः भारतस्य गहन रुचिः वर्तते. तेनोदीरितं यत् सर्वकारः अफगानिस्तानस्य संप्रभुतायै क्षेत्रीय अखण्डतायै स्वतन्त्रतायै च पूर्णतया प्रतिबद्धो अस्ति. सः प्रोक्तवान् यत् उभयोः देशयोः मध्ये घनिष्ठ सहयोगः अफगानिस्तानस्य राष्ट्रिय विकासेन सह क्षेत्रीय स्थिरतायामपि योगदानं प्रददाति. अत्रावसरे अफगानिस्तानस्य विदेशमन्त्रिणा प्रोक्तं यत् तस्य देशः कस्मैचिदपि अफगानिस्तानस्य भूमेः उपयोगं अन्यदेशानां विरुद्धं कार्याचरणाय नैव सहिष्यते. अमीर खान मुत्तकी इत्यनेन कथितं यत् अफगानिस्तान देशेन भारतं विरुध्य न कदापि अपभाषितं, सहैव भारतेन सह सर्वदापि उत्तमव्यवहारः आचरितः. विदेशमन्त्रिणा डॉक्टर एस जयशंकरेण 22 अप्रैल मासस्य पहलगाम आतंक्याक्रमणस्य निन्दायै अफगानिस्तानाय कार्तज्ञं प्रकटितम्. नवदिल्ल्यां डॉक्टर एस जयशंकरस्य तथैव अफगानिस्तानस्य विदेशमन्त्रिणः मौलवी अमीर खान मुत्ताकी इत्यनयोः मध्ये सम्पन्नवार्तायाः अनन्तरं एकस्मिन् संयुक्त वक्तव्ये उभौ पक्षौ क्षेत्रीयदेशेभ्यः उत्पद्यमानानां सर्वविध आतंकवादी कृत्यानां स्पष्टरूपेण निन्दाम् अकुरुताम्. तौ क्षेत्रे शान्तिं स्थिरतां तथा पारस्परिक विश्वासं संवर्धयितुं महत्वं प्रत्यपादयताम्. अफगान विदेशमन्त्रिणा पुनरुक्तं यत् अफगान सर्वकारः कस्मैचिदपि समूहाय व्यक्तये वा भारतस्य विरुद्धं अफगानिस्तानस्य क्षेत्रस्य उपयोगं कर्तुम् अनुमतिं नैव दास्यति. विदेशमन्त्रिणा नंगरहार कुनार प्रान्तेषु सद्यः दुरापन्ने भूकम्पे जनधन हानिमालक्ष्य गहन संवेदना च प्रकटीकृता. अत्रावसरे उभय पक्षाभ्यां सांस्कृतिक सम्पर्कं वर्धयितुं विशेषतः क्रिकेट क्रीडायां सहयोगं सुदृढीकर्तुम् उपायाः अपि विचारिताः. 20,000 नोबल शांति पुरस्कारः मारिया कोरिना मचांडो इत्यस्मै प्रदत्तः. वेनेजुएला देशस्य जनानां कृते लोकतांत्रिक अधिकाराणां प्रचारार्थम् अतिशय कार्यस्य कृते पुरस्कारोऽयं प्रदत्तः. वेनेजुएला देशे लौह महिला इति नाम्ना अपि प्रसिद्धा मचांडो इत्येषा 20,000 टैम पत्रिकायाः 100 प्रभावशालिनां जनानां सूच्यां सूचीबद्धा अस्ति. विधानसभा निर्वाचनस्य प्रथम चरणस्य अधिसूचना प्रकाशिता. अनेनैव सह 21.1 विधानसभा क्षेत्राणां प्रथमचरणस्य नामांकन प्रक्रिया च समारब्धा। प्रत्याशिनः अस्य मासस्य 17 दिनांक पर्यन्तं स्वनामांकन पत्रं दातुं शक्नुवन्ति। अग्रिमदिने नामांकन पत्राणां परीक्षणं भविष्यति। नामांकन प्रत्यावर्तनस्य अन्तिमा तिथि अक्टूबर मासस्य 20 दिनांकं वर्तते। प्रथमचरणे उत्तर दक्षिण बिहारस्य जनपदेषु मतदानं अक्टूबर मासस्य 6 दिनांके भविष्यति। निर्वाचनायोगेन नामांकन केन्द्राणां परिसरस्य सुरक्षायै विशेष निर्देशाः च निस्सारिताः। आरजेडी दलस्य नेत्रा तेजस्वी यादवेन प्रतिगृहम् एकं सर्वकार्योद्योगं दातुं घोषणा च कृता। अपरत्र जेडीयू दलस्य नेत्रा राजीव रंजन प्रसादेन एतत् मिथ्या प्रलापत्वेन प्रोक्तम्।
लैंड फॉर जॉब का मुकदमा है, वो अदालत में चल रहा है जिसमें तेजस्वी जी भी चार्जशीटेड है। अब ऐसे लोग क्या नौकरी देंगे? नौकरियां तो नीतीश कुमार जी ने दी, 10 लाख नौकरियां और 40 लाख रोजगार। और उसके बाद अब कैबिनेट ने 2025 से 30 के लिए 1 करोड़ रोजगार का के फैसले को मंजूरी दे दी। जनता देखती है आपकी साख।
संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। रक्षामन्त्रिणा राजनाथसिंहेन प्रोक्तं यत् देशः संरचनात्मक परिष्कारेषु विशेषतः विनिर्माण क्षेत्रे परिवर्तनशील यात्रायाम् अस्ति। तेनोदीरितं यत् भारतमधुना विश्वस्य चतुर्थ बृहत्तम अर्थव्यवस्था तथैव तीव्रतम विकासशीला अर्थव्यवस्था च अस्ति। सिडनीनगरे अद्य सम्पन्ने भारत ऑस्ट्रेलिया रक्षोद्योग व्यापार गोलमेज सम्मेलने भाषमानः श्री राजनाथ सिंहः कथितवान् यत् नीतिगत हस्तक्षेपैः तथा अनुपालन तन्त्राणां सरलीकरणेन रक्षोपादन पर्यावरण प्रणाल्यपि निरन्तरं सरलीभवति। श्री सिंहेन ऑस्ट्रेलियाई व्यापार समुदाय भारते निवेशाय सहयोगाय तथा नूतनाविष्काराय च आमन्त्रितः। तेन प्रोक्तं यत् भारत ऑस्ट्रेलिया देशौ अत्याधुनिक प्रौद्योगिकीनां विकासं कर्तुं शक्नुतः तथैव उन्नताधारतन्त्रं निर्मातुं शक्तौ स्तः। प्रधानमन्त्री नरेन्द्र मोदी श्वः नवदिल्ली नगरे पीएम धन धान्य योजना अपि च द्विदल धान्य मिशन इत्यस्मिन् स्वावलम्बनम् इति द्वयोः प्रमुखयोः उपक्रमयोः आरम्भं करिष्यति। कृषि मन्त्रालयः प्रख्यापितवान् यत् पीएम धन धान्य कृषि योजनायाः अन्तर्गतं कृत्स्नेह देशे शतशः न्यून उत्पादक मण्डलेषु समग्र कृषि विकासः भविष्यति, यस्य उद्देश्यं कृषकाणाम् आयः महत्वपूर्णरूपेण वर्धयितुम् अस्ति। इयं हि योजना प्रत्येकस्य कृषिक्षेत्रस्य कृते सिञ्चन सुविधाः सुनिश्चेतुं सस्य विविधीकरणं प्रवर्धयितुं ऋणसञ्चय मूल सौकर्याणां सुलभ प्रवेशनं च प्रदातुं प्रयतते। अमेरिका देशेन पाकिस्तानाय नव निर्मित उन्नत मध्यमान्तरेण आकाशे प्रहारक्षमाणां प्रक्षेपास्त्राणां आपूर्ति सन्दर्भे स्वीया आपत्तिः प्रकटिता। भारते स्थितेन अमेरिकी दूतावासेन स्पष्टीकरण वक्तव्ये प्रोक्तं यत् अमेरिकी विदेशी सैन्य विक्रय अनुबन्धे सद्यः सम्पन्ने संशोधनं इस्लामाबादाय नवीनानां शस्त्र प्रणालीनां हस्तान्तरणं नैवास्ति। दूतावासेन कथितं यत् एतत् संशोधनं केवलं संरक्षणं तथैव अतिरिक्त भागानां समर्थनं यावदेव सीमितम् अस्ति, तथा च तस्य शस्त्रागारे काचिदपि क्षमतावृद्धिः अथवा उन्नयनं नैव क्रियते। क्रिकेट क्रीडायां पौरस्त्यक्रीडकः यशस्वी जयस्वालः 73.1 अंकम् अवाप्य भारतस्य विजयं सुनिश्चितम् अकरोत्। इयं हि क्रीडा अरुणजेटली क्रीडाङ्गणे अभवत्। इतः प्राक् भारतीय नायकः गिल् इत्येषः पणकं जित्वा कृष्णमृत्तिकायां प्रथमं क्रीडनं चितवान्, यतोहि तद् अनुकूलनम् आसीत्। अहमदाबाद नगरे श्रृंखलायाः आरम्भे निर्णायक विजयस्य अनन्तरं भारतीय दलम् अन्येन प्रमुख प्रदर्शनेन गृहश्रृंखलायाम् अद्वितीयं प्रदर्शनं कर्तुं सज्जमस्ति। इति वार्ताः।